एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। काष्ठमण्डप जनपद न्यायालयेन कृत्रिम भूटान देशीय शरणार्थी प्रकरणे निगृहितान् चतुर्दश जनानेव नियन्त्रणे संस्थाप्य अनुसन्धातुम् प्रहरिणे दिनत्रयस्य अवधि प्रदत्तो वर्तते। काष्ठमण्डप जनपद प्रहरी परिसरस्य प्रहरीपरीक्षकस्य सीताराम रिजालस्य अनुसारेण पूर्वोप प्रधानमन्त्रिणा टोप बहादुर राय माझी इत्यनेन, पूर्वमन्त्रिणा बालकृष्ण खाँड इत्यनेन च सह त्रयोदश जनेभ्य प्रारम्भिक प्रकथन विवरण ग्रहण कार्यम् सम्पन्नम्। पश्चात्तन समये निगृहितात् पूर्वसभा सदात् आङटावा शेर्पा इत्यस्मात् प्रकथन विवरण ग्रहण कार्यम् सञ्चल्यमानम् वर्तते। सम्प्रति प्रवर्धितेषु त्रिषु दिनेषु आवश्यकम् अवशिष्टम् अनुसन्धानम् विधाय अन्तिम प्रतिवेदनम् निर्माय च सर्वकार्याधिवक्त कार्यालय प्रस्तुत्यै प्रहरिणा पूर्व कार्यम् विहितम् वर्तते। उपप्रधान गृहमन्त्री नारायणकाली श्रेष्ठ निगदति स्वस्यैव देशस्य नागरिकाणाम् वित्तम् गृहीत्वा अनागरिकाणाम् शरणार्थिनाम् च कारकेभ्यो जनेभ्य यत्किमपि बलसर्जनम् प्रभाव प्रदर्शनम् वा विहितम् सदपि सौविध्यम् दातुम् न शक्यते। नेकपा एकीकृत समाजवादी दलस्य संयुति संगठन प्रमुखस्य विजय पौडेलस्य प्रवक्तुः जगन्नाथ खतिवड़ाभिधस्य च प्रतिनिधिमण्डलेन ह्य अर्पितम् ज्ञापनपत्रम् गृह्णन् उपप्रधानमन्त्री श्रेष्ठः दोषिणाम् उन्मुक्ति निरोधनत्वेन निर्दोषाणाम् दण्डन निराकरणत्वेन च प्रहरिणा अनुसन्धानम् विधीयमानम् अस्तीति अवोचत। एकीकृत समाजवादी दलेन एतस्मिन् प्रकरणे संलग्नानाम् जनानाम् वैधानिक दण्डनस्य सीमायाम् आनयनाय स्पष्ट दृढताम् कार्यकुशलताम् सक्रियताम् च प्रदर्श्य अशेष नागरिकेषु अनुकूल सन्देशः प्रवाहितः इति कृत्वा सर्वकाराय धन्यवादः व्याहृतो वर्तते। विगत समये बहुनाम् भ्रष्टाचाराणाम् विषयाः मध्यकाले एव शून्यताम् प्रापिताः इति हेतोः एतावद् गभीरम् न्यायिक प्रकरणम् कथम् विधेनापि दुर्मेलनेन न दुर्बलीकर्तुम् न आच्छादयितुम् च एकीकृत समाजवादी दलेन सर्वकारस्य ध्यानम् आकर्षितम् वर्तते। ह्य एव मानवाधिकार शान्ति समाजस्य प्रतिनिधिमण्डलेन सह सम्पन्ने मेलने उपप्रधानमन्त्री श्रेष्ठ कृत्रिम भूटान देशीय प्रकरणे संलग्नाः सर्वे नोन्मोचनीयाः निर्दोषाः न दण्डनीयाश्चेति विचारेण सर्वकारेण गभीरेण अध्ययनम् अग्रे वर्धयितुम् निर्दिष्टम् अस्तीति समस्पष्टयत। उपप्रधानमन्त्रिणा श्रेष्ठेन सह सम्पन्ने मेलने मानवाधिकार शान्ति समाजेन भूटान देशीय शरणार्थी प्रकरणस्य सन्दर्भे सर्वकारीय कार्यदल संगठनस्य दुराभिप्रायात् चलखेल पार्यन्तिकम् आरोपम् विवरणम् सूक्ष्मतया अधीत्य अनुसन्धाय च दोषिणाम् विधिसम्मत दण्डनस्य सुनिश्चयनाय ध्यानम् आकर्षितम् वर्तते। राष्ट्रिय मानवाधिकार आयोगेन कृत्रिम भूटान देशीय शरणार्थी प्रकरणे विद्रोही पक्षम् शान्तिपूर्ण राजनीतेः मूला धारम् आनेतुम् न्यायिक प्रकरणस्य प्रत्यावर्तनत्वेन च सर्वकारेण चतुस्सप्तत्यधिक द्विसहस्रतम विक्रम वर्षीयायाम् उद्दण्डनापराध दण्डन कार्यविधि संहितायाम् विधीयमानम् संशोधनम् प्रति आयोगस्य ध्यानाकर्षणम् सम्भूतम् अस्तीति ज्ञापितम् वर्तते। आयोगेन हरिहर भवनवर्तिनी केन्द्रीय कार्यालय ह्य पत्रकार सम्मेलनम् आयोज्य सर्वकारेण उद्दण्डनापराध दण्डन कार्यविधि संहिताम् संशोध्य आपराधिक घटनायाः दोषीभ्य क्षमादान नाय स्थापितम् प्रावधानम् प्रति ध्यानाकर्षणम् सम्भूतम् अस्तीति ज्ञापितम् वर्तते। पत्रकार सम्मेलने राष्ट्रिय मानवाधिकार आयोगस्य अध्यक्ष तपबहादुर मगर सर्वकारस्य पूर्वकार्यस्य अनुसारेण उद्दण्डनापराध दण्डन कार्यविधि संहितायाम् संशोधितायाम् सत्याम् व्यक्तिहत्यायाः क्रूरायाः अमानवीय यातनायाः गभीर यौन हिंसायाः अपहरणस्य बलपूर्वक बन्धक कारिण्याश्च मानवाधिकाराणाम् गभीरोल्लङ्घनस्य उद्दण्डनापराधस्य घटनानाम् अभियुक्तैः अपि उन्मुक्तिः प्राप्तुम् शक्यते इति अतर्कयत। अध्यक्षः मगर उद्दण्डनापराध दण्डन कार्यविधौ विधीयमानेन संशोधनेन सत्यनिरूपणमेलायोगस्य माध्यमेन समाधातव्यानि संक्रमणकालिक न्यायेन सम्बद्धानि न्यायिक प्रकरणानि अपि प्रभावितानीति भविष्यन्तीति प्रभावितानि भविष्यन्तीति आशंकत। एवमेव आयोगेन नेपालिनः कृत्रिम भूटानदेशस्य शरणार्थिनो विदाय विहितस्य वञ्चनस्य प्रकरणेऽपि ध्यानाकर्षणं सम्भवतमस्तीति ज्ञापयता। घटनायाः तथ्यमन्विष्य दोषिणां दण्डनम् अभियाचितमस्ति। शरणार्थी प्रकरणे राजनीतिक दलानां नेतृणाम् उच्चपदस्थ कर्मचारिणां च संलग्नतायां संरक्षणे च विपुल मात्रायां वित्तस्य वञ्चनं दृष्टमस्तीत्यतः कार्यमेतद् न केवलं भ्रष्टाचारः वञ्चनं चैव अपितु मानव क्रय विक्रयण सदृशः मानवतायाः विरोधी अपराधः सम्भूतोऽस्तीति आयोगस्य अध्यक्ष मगर अवोचत। अध्यक्षः मगर घटनायाः सर्वेषु पक्षेषु शून्य सहनशीलतायाः नीतिम् अवलम्ब्य स्वतन्त्रं स्वच्छं निष्पक्षं च अनुसन्धानं विधातुं संलग्न व्यक्तिः विदेहे परिधौ आनेतुं च अयाचत। संचार सूचना प्रविधि मन्त्री रेखा शर्मा कथयति सूचना प्रविधि सम्बद्धां सेवां सरल मूल्ययुतां गुणस्तरीयां च विधाय सर्वेषाम् उपागमनं प्रापयितुं सेवा प्रदायकैः नियामक निकायैश्च विशेषं ध्यानं प्रदातव्यम्। विश्व दूरसंचार सूचना समाज दिवसस्य अवसरे ह्यो नेपाल दूरसंचार प्राधिकरणेन आयोजिते स्पेक्ट्रम म्यानेजमेन्ट नामदेहे दूरसंचार रूपच्छटा व्यवस्थापन सम्मेलने संचार सूचना प्रविधि मन्त्री शर्मा सूचना प्रविधौ प्राप्तोपागमनानां तदरहितानां च जनानां मध्ये स्थितां दूरीं निवारयितुं सेवा प्रदायकैः चिन्तनीयमिति प्रत्यपादयत। संचार मन्त्री शर्मा दूरसंचार क्षेत्रे सृष्टानां समस्यानां सुधर्तव्यानां विषयाणां सूचना प्रविधि क्षेत्रात् राजस्व संकलनस्य दूरसंचार सेवाया गुणस्तर सुधारस्य च विषयेषु समीक्षणस्य आवश्यकतां प्रादर्शयत। संचार सूचना प्रविधि मन्त्रालयस्य सचिव कृष्णबहादुर रावत वैद्युताङ्कन दर्शी विभेदस्य न्यूनीकरणत्वेन एतस्यां व्यवस्थायां समावेशितायाः संस्थापनत्वेन च पूर्वाधार निर्माणे सर्वकारः क्रियाशीलोस्तीति अज्ञापयत। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली देशस्य परिस्थितिः अत्यन्तं गभीरा सत्यपि सत्तासीन दलैः सामान्य रूपेण मतमस्तीति आरोपयति। त्रिंश मदनाश्रित स्मृति दिवसस्य अवसरे ह्य बल्खुवर्तिनी मदन नगरे आयोजिते कार्यक्रमे अध्यक्ष ओली देशं विकासस्य गतौ कथम् अग्रे वर्धनीयः इत्यत्र सर्वकारेण ध्यानं दत्तं नास्तीति आरोपयत। एमाले दलं स्वार्थाय एव केनापि पक्षेण सहकार्यं न करोतीति स्पष्टीकुर्वन् असौ देशस्य जनतायाः सुशासनस्य च कृते एमाले दलं अग्रस्थाने तिष्ठतीति प्रतिबद्धतां व्यक्तवान्। भौतिक पूर्वाधार यातायात मन्त्री प्रकाश ज्वाला भासते विकास निर्माणस्य कार्यं यथासम्भवं शीघ्रं सम्पादयितुं सर्वकारः प्रतिबद्धतया संलग्नो वर्तते। ह्य मन्त्रालये आयोजिते पत्रकार सम्मेलने मन्त्री ज्वाला विकासस्य उपलब्धिः जनता शीघ्रं प्राप्नुयात् इत्यत्र सर्वकारेण विशेषं ध्यानं प्रदत्तमिति अज्ञापयत। मन्त्री ज्वाला बोबई नद्याः उपरि जब्दीघाटस्थाने भञ्जितसेतोः पुननिर्माणस्य प्रक्रिया अग्रे वर्धितास्ति त्यतः भञ्जितसेतोः अनशनरतं नेपाली कांग्रेस दलस्य सांसदं संजय गौतमं अनशनं त्यक्तुम् अन्वरुणत। राष्ट्रिय प्रजातन्त्र दलेन दलस्य केन्द्रीय नेतृभ्यः भूगोल केन्द्रितं दायित्वं निर्धारयितुं निर्णीतमस्ति। राप्रपा दलस्य प्रवक्ता सगुन सुन्दर लावती ह्य विज्ञप्तिं प्रकाश्य अस्यैव ज्येष्ठस्य प्रथम दिवसात् सोमवासरात् ह्यस्तनावधि दलस्य धुम्बा रायवर्तिनी केन्द्रीय कार्यालये उपविष्टेन केन्द्रीय कार्यसमितेः उपवेशेन अध्यक्षेण प्रस्तुतं कार्यपत्रम् अन्य प्रतिवेदनानि च सपरिमार्जनं पारितीकृतानीति अज्ञापयत। पूर्व राष्ट्रपति डाक्टर रामवरण यादव वदति प्रजातान्त्रिक विचारस्य आधारस्य आदर्शस्य सैद्धान्तिकाधारस्य च सबलतायाः कारणेन एतस्य भविष्यं सुरक्षितं वर्तते। प्रजातान्त्रिक विचार समाजस्य द्वादश राष्ट्रिय महाधिवेशनस्य पञ्चविंश्याः साधारण सभायाश्च उद्घाटन समारोहे ह्य असौ अगदत् विगत समये देशे समस्यायाम् उद्भूतायां सत्यां प्रतिग्रामं प्राप्तस्य कांग्रेस दलस्य इदानीं विलुप्तेः कारणेन प्रजातन्त्रे संकटः दृष्टोऽस्ति। राष्ट्रिय सभाया विधायन व्यवस्थापन समितौ गत विक्रम वर्षीयस्य नेपाल विश्वविद्यालय विधेयकस्य विषय विमृष्टमस्ति। समिते ह्यसीमा प्रसादे उपविष्टे उपवेशे शिक्षा विज्ञान प्रविधि मन्त्री अशोक कुमार राई नेपाल विश्वविद्यालयं सम्प्रति सञ्चाल्यमानेभ्य विश्वविद्यालयेभ्य पृथक रूपेण सञ्चालयितुं विधेयकम् आनीतमस्ति इति असूचयत।